इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। भारत नामीबिया देशयोर्मध्ये उद्यमिता विकास केन्द्रस्य स्थापनायै चिकित्सौषधि क्षेत्रे सहयोगाय च सन्धिपत्रे ज्ञापने हस्ताक्षराणि जातानि। प्रधानमन्त्री नरेन्द्र मोदी अद्य रात्रौ विंडहोक इत्यत्र नामीबियायाः संसत्सत्रं सम्बोधयिष्यति। नामीबियायाः सर्वोच्च नागरिक सम्मानम् अपि अधिगमिष्यति। गुजरातस्य वडोदरा जनपदे जातायां सेतु विखण्डनस्य घटनायां नवसंख्याकाः जनाः मारिताः, बहवश्च व्रणिताः संजाताः। राज्यसर्वकारेण अन्वीक्षणादेशः प्रदत्तः। मॉनसून इत्यस्य स्थितिः मध्य भारतीय क्षेत्रेषु आगामिषु चतुर्पञ्च दिवसेषु अपि निरन्तरतां प्राप्स्यति। अपि च महिलानां क्रिकेट क्रीडायां चतुर्थे द्वन्द्वे मानचेस्टर इत्यस्य ट्रेफोर्ड ग्राउण्ड इत्यत्र भारतीयदलं इंग्लैण्ड दलम् अद्य रात्रौ सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य राजधान्यां विंडहोक स्थिते स्टेट हाउस इत्यत्र नामीबियायाः राष्ट्रपतिना नेटुम्बो नन्दी नदेतवा इत्यनेन सह प्रतिनिधिमण्डलस्तरीय वार्ताम् अकरोत्। अस्याः वार्तायाः उद्देश्यं महत्वपूर्ण क्षेत्रेषु सहयोगस्य नवीन क्षेत्राणाम् अन्वेषणम्, द्वयोः देशयोर्मध्ये आर्थिक सहभागितायाः सुदृढीकरणं च आसीत्। भारत नामीबिया देशयोर्मध्ये अद्य उद्यमिता विकास केन्द्रस्य स्थापनायै एकस्मिन् सन्धिज्ञापने हस्ताक्षराणि जातानि। द्वयोः देशयोर्मध्ये चिकित्सौषधि क्षेत्रे अपि सहयोग विषयके सन्धिज्ञापने हस्ताक्षराणि जातानि। यात्राकाले प्रधानमन्त्री नामीबिया देशस्य संस्थापकस्य तथा प्रथमराष्ट्रपतेः स्वर्गीयस्य डॉ सैम नुजोमा वर्याय श्रद्धांजलिम् अपि प्रायच्छत्। द्वैपाक्षिक सम्बन्धान् सुदृढं कर्तुं योगदानार्थं श्रीमोदी नामीबिया देशस्य सर्वोच्च नागरिक पुरस्कारेण सम्मानितः भविष्यति। एतदतिरिच्य प्रधानमन्त्री नामीबिया देशस्य संसत सदने अपि सम्बोधयिष्यति। यद्वयोः देशयोर्मध्ये विद्यमानयोः सम्बन्धयोः निर्णायकं क्षणं भविष्यति। संसाधन समृद्धे दक्षिण अफ्रीका देशे श्रीमोदीवर्यस्य एतत् प्रथमं भ्रमणम् अस्ति। अपि च प्रायः दशकत्रयानन्तरं भारतस्य प्रधानमन्त्रिणः तृतीयं भ्रमणमस्ति। इतः पूर्वं प्रातःकाले श्रीमोदी स्वस्य पञ्चराष्ट्राणां यात्रायाः अन्तिमे चरणे विंडहोक नगरं प्राप्तवान्। गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलः वडोदरा जनपदे गम्भीरा क्षेत्रस्य सन्निकटे सेतोर्विखण्डनस्य जातायाः घटनायाः अन्वीक्षणादेशं प्रायच्छत्। अवधेयं यत् अस्यां घटनायां नवसंख्याकाः जनाः मारिताः, बहवश्च व्रणिताः संजाताः। श्रीपटेलः घटनायाः अस्याः सम्बन्धे अधिकारिभ्यः सूचनापत्रं दातुम् अकथयत्। अस्यां घटनायां पञ्चवाहनानि महीसागर नद्यां पतितानि, येन नवसंख्याकानां जनानां मृत्युः अभवत्। स्थानीयाधिकारिणः बृहद्रूपेण सहायोद्धार अभियानं प्रारभन्। बिहार राज्ये मतदाता सूचीभ्यः निर्वाचनायोगस्य इति विशिष्ट गहन संशोधनं विरुध्य राष्ट्रिय जनता दलस्य कांग्रेस दलस्य च नेतृत्वभूतेन महाग्रन्थि बन्धनेन समाहूतेन राज्यव्यापि विरोधेन अद्य मिश्रिता प्रतिक्रिया जनिता। पिधानित्यस्य समर्थकाः केषुचित् स्थानेषु मार्गाणि अवरुद्धानि अकुर्वन्, रेलसेवाः च तै बाधिताः। यद्यपि सर्वकारीयाणि अन्यानि च प्रतिष्ठानानि सामान्यरूपेण कार्यं कुर्वन्ति स्म। अस्मिन् मध्ये भाजपादलस्य वरिष्ठनेता रविशंकरप्रसादः विरोधप्रदर्शनम् अधिकृत्य विपक्षे लक्ष्यम् असाधयत्। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् श्रीप्रसादः राजद कांग्रेस दलयोः नेतृत्वभूतस्य महाग्रन्थिबन्धनस्य उपरि अस्मिन् विषये राजनीत्याः आरोपः प्रख्यापितः अस्ति।
जब कल सुप्रीम कोर्ट में सुनवाई होने वाली है तो आज ये कौन सा दबाव बनाया जा रहा है? क्या लोग चाहते हैं कि वोटर लिस्ट में वो लोग रहें जिनको नहीं रहना चाहिए? तो अगर ईमानदारी से काम हो रहा है तो परेशानी क्या है आपको? संकेत यही है कि जो भी गलत तरीके से वोटर बन गया उसके कंधों पर ये अपनी सियासत करना चाहते हैं।
राजस्थानस्य चुरुमण्डलस्य समीपे अद्य भारतीय वायुसेनायाः विमानं दुरापन्नं समावाप्नोत्। राजल देसर आरक्षि स्थान क्षेत्रे एषा घटना घटितास्ति। चुरू आरक्षी अधीक्षक जय यादव अवदत् यत् स्थलात् दग्ध शवद्वयं प्राप्तमस्ति। सः अवदत् यत् नागरिकाणां क्षतेः सूचना नास्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। ऋतु विज्ञान विभागेन अद्य छत्तीसगढ़ मध्य प्रदेशयोः अतिवृष्टेः रेड अलर्ट इति संचेतना प्रसारिता अस्ति। आकाशवाण्या सह चर्चायां विभागस्य वरिष्ठ वैज्ञानिकः डॉक्टर आरके जेनामणि अवदत् यत् आगामी दिनद्वयोः भारत मध्य भारते निरन्तरं वृष्टेः संभावना विद्यते। विभागेन उत्तर भारते आगामी दिनद्वयं यावत् वर्षायाः कृते ऑरेंज अलर्ट इति नारंग वर्णीय संचेतना अपि प्रसारिता अस्ति। सः अवदत् यत् दिल्ली नगरे तत्समीपस्थे च एनसीआर क्षेत्रे लघुतः मध्यम पर्यन्तं वर्षां भवितुं शक्नोति।
If we talk about the heavy rainfall warning, mainly because of the low pressure area over Gangetic West Bengal and Jharkhand, we have given the red color warning over Chhattisgarh and Madhya Pradesh today for 9th July, and further orange color will be central India, mainly these area, for next 2 days. And for the North India, mainly Punjab, Haryana and Uttarakhand, and also Uttar Pradesh, we have given heavy to very heavy rainfall orange color warning for next 2 days. And for National Capital Region Delhi, we have given the yellow color warning for the light to moderate rainfall.
अस्मिन् वर्षे फरवरी मासे अमेरिका देशात् निर्वासितानां अवैध प्रवासीनां प्रकरणे डंकी रूट इति प्रकरणस्य सन्दर्भे अद्य प्रवर्तन निदेशालयेन अमृतसर संगरूर पटियाला मोगा अम्बाला कुरुक्षेत्र करनाल चेत्यादिषु एकादश स्थानेषु अन्वेषणं कृतमस्ति। अमेरिकादेशं प्रति गन्तुम् इच्छुकानां विभिन्नानां जनानां ये वञ्चनं कृतवन्तः यात्रा वीजा मध्यस्थताकर्तृणः विरुद्धं पंजाब हरियाणा राज्ययोः आरक्षिबलैः अस्मिन् प्रकरणे अन्वेषणं समारब्धम्। मुम्बय्याः 26/11 इति आतंक्याक्रमणस्य सूत्राधारस्य तहवुर राणा इत्यस्य न्यायिक निगडनं दिल्ली न्यायालयेन अद्य अग्रिममासस्य 13 दिनांकपर्यन्तं विस्तारितमस्ति। यदा राष्ट्रिय अन्वेषण विभागः राणा इत्येतं विरुध्य पूरकम् आरोपपत्रं प्रायच्छत् तदा एव एषा कार्याचरण प्रक्रिया वृद्धिम् अधिगता। अमेरिकायाः सर्वोच्च न्यायालयस्य निर्णयेन डोनाल्ड ट्रम्पः इत्यस्मै अन्यः प्रमुखः विजयः प्रापितः येन तस्य प्रशासनं संघीय कार्येषु व्यापक ह्रासेन सह अग्रे गन्तुम् अनुमतिम् अध्यगच्छत्। अयं निर्णयः निम्न न्यायालयस्य आदेशान् अतिक्रामयत् ये ले ऑफ इत्येतान् स्थगितवन्तः अपि च ये एलोन मस्क इत्यस्य नेतृत्वे सर्वकारीय कार्यक्षमता विभागेन प्रेरिताः सन्ति। ध्यानास्पदं वर्तते यत् सर्वोच्च न्यायालयेन सद्यः एव ट्रम्प प्रशासनस्य अनेकेषां कार्याणां समर्थनं कृतमस्ति। केन्द्रीय रसायन उर्वरक मन्त्री जेपी नड्डावर्यः तेलंगाना सर्वकाराय कृषकाणां वास्तविकम् आग्रहं पूरयितुं सर्वसमर्थनस्य आश्वस्तिं प्रायच्छत्। सहैव आवश्यकतानुगुणं यूरिया इत्यस्य आपूर्तिं सुनिश्चितं कर्तुम् अधिकारिभ्य आदेशम् अपि प्रायच्छत्। यः तेलंगाना राज्यस्य मुख्यमंत्री ए रेवंत रेड्डी नवदिल्ल्यां श्री नड्डां मिलितवान् यत्र तौ राज्ये उर्वरकाणाम् उपलब्धि विषये चर्चां कृतवन्तौ। उपवेशनावधौ श्री नड्डा वर्यः राज्ये यूरिया इत्यस्य अत्यधिकस्य उपयोगस्य विषये अपि चिन्तां प्रकटितवान् यत् मृत्तिकायाः दीर्घकालीनायाः अवस्थायाः कृते हानिकारकम् अस्ति। भारतीय महिला दलम् अद्य रात्रौ मैनचेस्टर नगरे ओल्ड ट्रेफर्ड ग्राउंड इत्यत्र इंग्लैंड दलं विरुध्य चतुर्थ स्पर्धायां T20 इति श्रृंखलां विजेतुं लक्ष्यं साधयिष्यति। इयं क्रीडा स्पर्धा प्रातः 11 वादने समारप्स्यते। इति वार्ताः।